श्रीगुरुभजनस्तोत्रम् कलाभिः कल्पिताशेष भुवनानन्दभोजनम् क्रीडन्तं त्रिपुरे नित्यं परसंविद्गुरुं भजे। हर्याकारं हराकारं ह्रीङ्कारं वाम्बिकातनुं हृदये द्वैतमात्मानं द्योतयन्तं गुरुं भजे। शिवप्रियं च रुद्राक्षं गले भाले त्रिपुण्ड्रकं करे संविन्मयी मुद्रां धारयन्तं गुरुं भजे। काषाय वसनोपेतं करुणार्द्रविलोचनं कामारी सेवनासक्तं कल्मषघ्नं गुरुं भजे। श्रितार्तिभेदनोद्युक्तं शरमदं शमशोभितं श्रुत्यन्तवाक्यमनिशं श्रावयन्तं गुरुं भजे। संशयोच्छेदने दक्षं रक्षिताचार्यसन्ततिं स्वनाथकरपाथोज सञ्जातं सद्गुरुं भजे। दीक्षितं शिष्यमोक्षार्थे साक्षात्कृतमहत्पदं दक्षिणामुखदेवांशं ब्रह्मनिष्ठं गुरुं भजे। ग्रन्थिं भित्त्वा विनिर्यान्तं वर्षन्तं गगनेऽमृतं कोटिविद्युत्प्रतीकाशं शक्तिपुञ्जं गुरुं भजे। जनयित्वा निजानन्दे रक्षित्वा मां क्षणे क्षणे पाययन्तं भक्तिरसं मातृभूतं गुरुं भजे। अनन्यभावनागम्यम् अभयं ज्योतिरान्तरम् इच्छाज्ञानक्रियामूलम् आत्मरूपं गुरुं भजे। देशिकेश्वरपश्वादि भेदशून्यं चिदंबरं देशकालानवच्छिन्नं निर्विकल्पं गुरुं भजे। मज्जन्मजन्मसाफल्यम् अहो जातमयत्नतः यदङ्घ्रिरेणुसंस्पर्शात् तमानन्दं गुरुं भजे। श्रीगुरुद्वादशात्मानं ध्यात्वा स्तोत्रमिमं पठेत् साधकोत्तमः संविद् दृष्टिसौष्ठवहेतवे।